ब्रह्म गुरुविष्णुगुरुदेव महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सहचारः, अपि तत्र व्यभिचारः इति। तत्र गतवर्गे वयं तत्र अन्वयसहचारः, अन्वय तत्र व्यतिरेकसहचारः, अपि तत्र अन्वयव्यभिचारः, अपि तत्र व्यतिरेकव्यभिचारः दृष्टवन्तः। तत्र अन्वयसहचारः इति प्रथमतया तत्र किमिति, अस्तु अस्तु एकनिमिषं, किम् अभवत्, अस्तु ओ अन्वय अपि तत्र सहचारः व्यतिरेकसहचारः, अस्तु तत्र व्यतिरेक तर्हि अन्वयसहचारः तत्र कोऽपि वदति वा अन्वयसहचारस्य उदाहरणं किम् इति, अथवा तत्र अन्वयसहचारः इति कदा भवति तत्र? तर्हि तत्र शोभभगिनी वदति वा किञ्चित् अन्वयसहचारः?
आं महोदय, अन्वयसहचारः इत्युक्ते तत्र कारणं भवति अपि च कार्यमपि भवति इति। तत्र सहचारः इत्युक्ते कारणेन सह कार्यमपि सहचरति इति। अपि च अग्रे अपि वदनीयं वा व्यतिरेक इति सहचारः
तावदेव?
अन्वयसहचारः उदाहरणं इत्युक्ते तत्र कारणं सति, कारणे सति कार्यं भवति इति। इत्युक्ते घटम् इति स्वीकुर्मः चेत् कारणं भवति, अनेके कारणाः सन्ति, किन्तु तत्र दण्डः इति स्वीकुर्मः चेत् दण्डे सति घटः भवति, घटोत्पत्तिः भवति इति वक्तुं शक्नुमः। अतः तत्र
अस्तु तावत्पर्यन्तं नाम
अस्तु
तत्र यत्र दण्डः, तत्र दण्डः अस्ति तत्र घटः, घटः इति कार्यरूपेण भवति इति। अस्तु, तत्र कारणमपि अस्ति कार्यमपि अस्ति, अन्वयसहचारः। अस्तु, समीचीनम्। अस्तु, द्वितीय किम् आसीत्? अन्वय
व्यभिचारः,
व्यभिचारः। तर्हि तत्र अन्वयव्यभिचारः तर्हि अत्र उदाहरणं किमस्ति?
अन्वय इदानीम् अन्वयव्यभिचारः इत्युक्ते कारणं सत्त्वे अपि कार्यं न भवति इति। अतः तत्र कारणं पुनः घटस्य उदाहरणं स्वीकुर्मः चेत् तत्र कारणमिति पुनः दण्डः भवति चेत् कार्यस्य कार्यं
पदार्थद्वयं स्वीकुर्मः अपि अस्माकम् इच्छा का नाम तयोः मध्ये कार्यकारणभावः अस्ति न वा इति
तयोः मध्ये कार्यकारणभावः अस्ति वा इति प्रश्ने सति नास्ति।
तर्हि तत्र पदार्थद्वयं किं स्वीकृतम्
इदानीम् अन्वयव्यभिचारे वा महोदय?
आमामाम् अन्वयव्यभिचारे,
अन्वयव्यभिचारे कारणेन तत्र यथा एकक्षणं महोदय, तत्र किञ्चित् विद्यमानत्वे
तत्र तन्तुः इति स्वीकरोतु, तन्तुः
तन्तुः अस्ति चेदपि तत्र पटः न घटः न भवति इति खलु महोदय? तन्तुः अस्ति किन्तु घटः न भवति, तत्र एव किञ्चित् भ्रमः अभवत्। तन्तौ सत्यपि घटः न उत्पद्यते इति। अतः तत्र कार्यकारणभावः नास्ति, यतोहि सामानाधिकरणीयं नास्ति।
तन्तुः अस्ति, पटः इति कार्यम् इति भवति, अत्र तन्तुः इति अस्ति किन्तु घटः इति कार्यं न भवति कार्यं नास्ति अस्तु समीचीनं तर्हि तत्र अन्वयसहचारः तन्तुः अस्ति कार्यमपि अस्ति नाम तन्तुः अस्ति अपि कार्यमपि अस्ति अन्वयव्यभिचारः तन्तुः अस्ति किन्तु घटः नास्ति कार्यं नास्ति नाम तत्र तन्तुः घटः तयोः मध्ये कीदृशसम्बन्धः इत्युक्ते वयं वदामः अन्वयव्यभिचारः व्यभिचारः सम्बन्धः इति अस्तु समीचीनं भगिनि धन्यवादः अस्तु इदानीं तत्र अग्रे विमला भगिनी अग्रे इदानीं तत्र व्यतिरेकसहचारः अपि व्यभिचारः
व्यतिरेक आं नमस्ते महोदय व्यतिरेक सहचारः इत्युक्ते तन्तुः सत्यपि घटः न उत्पद्यते इति तत् व्यतिरेकसहचारः खलु न व्यतिरेक व्यभिचारः
किं भगिनि पुनः
भ्रमः अस्ति महोदय तदेव अहं
अस्तु अस्तु अन्य कोऽपि वदति अग्रे भवती वदतु भगिनि चिन्ता मास्तु तर्हि तत् नूतनतया अस्ति अत्र पद्माभगिनमस्कारः पद्माभगिनमस्कारः नीता भगिनी नमस्कारः तर्हि पद्माभगिनी किञ्चित् वदति वा तत्र व्यतिरेकसहचारस्य उदाहरणम्
अस्तु व्यतिरेकसहचारः इत्युक्ते यत्र कपालः नास्ति तत्र घटः अपि नास्ति यत्र अभावः अस्ति तत्र अपि अभावः तादृशसम्बन्धाः
एकनिमिष तत्र कारणं
नास्ति अभावः कार्यस्य अपि अभावः
अस्तु समीचीनम् अस्तु अपि उदाहरणम् अस्ति तत्र किमस्ति उदाहरणम्
उदाहरणं गन्धपृथिव्योः गन्धः नास्ति चेत् पृथ्वी नास्ति चेत् गन्धः अपि नास्ति
हा पृथ्वी नास्ति चेत् गन्धः अपि नास्ति अस्तु समीचीनं हा तर्हि पृथ्वी नास्ति गन्धः अपि नास्ति अस्तु समीचीनम्
व्यतिरेकव्यभिचारः इत्युक्ते तत्र कारणं नास्ति कारणस्य अभावः परन्तु कार्यस्य सद्भावः
समीचीनं
तत्र तन्तुः अस्ति तन्तुः नास्ति कारणस्य अभावः
तन्तुः
नास्ति परन्तु घटः उत्पद्यते
हा घटः उत्पद्यते समीचीनं घटः उत्पद्यते समीचीनं हा अस्तु समीचीनं भगिनि हा अस्तु इदानीं तत्र चत्वारः तत्र प्रकाराः सन्ति चत्वारः प्रकाराः सन्ति तत्र एक अंशः तत्र मनसि स्थापनीयः नाम तत्र यत्र अन्वयः इति वदामः अन्वयः इत्युक्ते मनसि तत्र कारणम् अस्ति अन्वयः नाम कारणम् अस्ति व्यतिरेक नाम कारणं नास्ति तर्हि अन्वयः इति शृण्मश्चेत् अस्तु अस्तु कारणम् अस्ति अपि अन्वयसहचारः नाम या स्थितिः कारणस्य सा एव स्थितिः कार्यस्य अपि नाम सहचारः कारणम् अस्ति तर्हि कार्यमपि अस्ति सहचारः व्यतिरेकसहचारः व्यतिरेककारणं नास्ति सहचारः तर्हि कार्यमपि नास्ति व्यभिचारः
क्षमतां तत्र कस्यचित् दूरवाण्यां बहु ध्वनिः अस्ति म्यूट् कुर्वन्ति चेत् सम्यक् भवति
अस्तु 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 तत्र इदानीं प्रायश नास्ति हा इदानीं नास्ति इदानीं सम्यक् श्रूयते वा
आमां धन्यवादः महोदय
अस्तु हा अपि इदानीं तत्र व्यभिचारः व्यभिचारः नाम या स्थितिः कारणस्य तस्य विपरीतस्थितिः कार्यस्य, तर्हि अन्वय नाम कारणमस्ति, व्यभिचारः तर्हि कार्यं नास्ति। व्यतिरेक व्यभिचारः, व्यतिरेक नाम कारणं नास्ति, व्यभिचार नाम सहचारः नास्ति, अतः कारणं नास्ति किन्तु कार्यम् अस्ति इति। अतः तत्र अन्वयः इत्युक्ते कारणं भवति, व्यतिरेक नाम कारणं नास्ति, सहचारः नाम तत्र कारणकार्य तत्र अस्तित्वं समानमस्ति सहचारस्थिते, अथवा अभावयोः अस्तित्वं समानमस्ति, व्यभिचार नाम विपरीततया अस्ति। अतः तत्र सहचारः अत्र भवति, व्यभिचारः तयोः विपरीतस्थितिः। अतः तत्र योगेन्द्रमहोदय स्वशब्दैः एकवारं पुनः वदतु महोदय, तत्र अन्वयसहचारः व्यभिचारः, तत्र उदाहरणानि मास्तु, किन्तु अन्वयः नाम किं किं स्थापनीयं मनसि, अपि सहचारः व्यभिचारः इति।
अन्वयः इत्युक्ते कारणमस्ति, कार्यमपि अस्ति, तत् विपरीतम्, अतः कारणम् अपि च कार्यस्य अभावः इति व्यतिरेकसहचारः अस्ति। अन्वयव्यभिचार इति कारणं तु अस्ति, परन्तु कार्यं नास्ति, ततः विपरीतं भवति, व्यतिरेकव्यभिचारः, कारणं नास्ति, कार्यम् अस्ति। अतः अन्वय व्यतिरेक तयोः मध्ये किं भेदः अस्ति? अन्वयसहचार अन्वयव्यभिचार तत्र कारणं तु अस्ति, परन्तु व्यतिरेकसहचार अपि च व्यतिरेकव्यभिचारः तत्र कारणं नास्ति।
तर्हि अन्वय व्यतिरेक तयोः मध्ये कः भेदः?
अन्वयव्यतिरेक मध्ये भेदः अन्वय सहचार वा व्यभिचार, कारणं तु अस्ति, परन्तु व्यतिरेक सहचार वा व्यभिचार, कारणं नास्ति
नास्ति इति। अपि सहचारः इत्युक्ते
सहचार इत्युक्ते कारणम् अस्ति तदा कार्यम् अस्ति, कारणं नास्ति तदा कार्यं नास्ति इति सहचारः।
इति सहचारः, समीचीनं महोदय, हा तथैव अस्ति। अस्तु तर्हि तत्र मन एतत् सर्वं स्पष्टम् अस्ति इति मन्ये, कोऽपि प्रश्नः अस्मिन् विषये?
आचार्य, प्रथमे उदाहरणे अन्वयसहचारे तन्तौ सत्यपि घट उत्पद्यते इति उदाहरणं न स्वीकर्तुं शक्नुमः वा?
किं 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 किम्
तन्तौ सत्त्वे घटोत्पत्तिः भवति इति न शक्यं खलु उदाहरणं?
तन्तुः सत्यपि घटः उत्पद्यते इति तत्र किं भवती किं वक्तुम् इच्छति? तयोः मध्ये कार्यकारणभावः अस्ति इति वक्तुम् इच्छति वा, अथवा नास्ति इति वक्तुम् इच्छति वा?
नास्ति इति।
तत्र अन्वयः सहचारः, तत्र अस्तु भवती एव वदतु कदा कार्यकारणसम्बन्धः भवति पदार्थद्वयोः मध्ये?
अस्ति इति उदाहरणं
किं भगिनि?
पृथ्वी अस्ति तदा गन्धः अपि अस्ति इति उदाहरणं खलु?
न न, भवती वदतु, तत्र गतवर्गे वयं चर्चितवन्तः तत्र पदार्थद्वयोः मध्ये कदा तत्र निश्चितः भवति तयोः मध्ये तत्र कार्यकारणभावः सम्बन्धः वर्तते इति, किञ्चित् स्मरति वा?
तदा यदा कारणमस्ति, यदा यदि कारणं भवति कार्यमपि अस्ति, अन्यथा कारणस्य अभावे कार्यस्य अपि अभावः भवति।
हा तर्हि किं किं भवेत् तर्हि कार्यकारणसम्बन्ध निश्चितस्य निर्धारणसमये अन्वयसहचारः अपि भवेत्? अपि
अन्वय सहचारः भवेत्, व्यतिरेकसहचारः अपि भवेत्,
अपि भवेत् इति अस्ति। समीचीनं भगिनि, अस्तु, हा समीचीनं। तर्हि इदानीं भवत्याः प्रश्नः कः?
मम प्रश्नः अस्ति, तत्र उपरि लिखितमस्ति खलु तन्तुः पटः, कार्यं तत् स्वीकर्तुं शक्नुमः वा इति
तन्तुः पटः कस्य उदाहरणम् अन्वयसहचारस्य उदाहरणं तन्तुः पटः
तन्तुः पटः
प्रश्नः अस्ति वा तत्र
लिखितं कार्यस्य उपरि लिखितम्
न सम्यक्तया न श्रूयते भगिनि भगिनी क्षम्यतां न श्रूयते
महोदय कृपया एकवारम् एतत् पुनः वक्तुं शक्यते किम् अन्वय व्यतिरेकयोः उदाहरणत्वेन कः सम्बन्धः अस्ति इति
आं भगिनि आम् तत्र उदा तत्र अन्वयसहचारः इति अन्वयः यत्र शृण्मः तत्र अपि तत्र एतस्य उपयोगः कः इत्युक्ते पदार्थद्वयमस्ति अपि वयं चिन्तयामः अस्माकं प्रश्नः अस्ति तयोः मध्ये कार्यकारणसम्बन्धः वर्तते वा इति निर्धारणं कर्तुम् इच्छामः न जानीमः तत्र तयोः मध्ये सम्बन्धः अस्ति न वा इति निर्धारितुम् इच्छामः किन्तु न जानीमः एतावत् तत्र वयं पश्यामः तत्र अन्वयसहचारः नाम तत्र अभिमतम् इति नाम एतत् कारणम् इति यत् अस्माकं सन्देहः वर्तते तत्र कारणत्वेन अभिमतपदार्थः इति वदामः समीचीनं खलु विमला भगिनि
महोदय समीचीनम्
तर्हि कारणत्वेन अभिमतः पदार्थः अपि कार्यत्वेन अभिमतः पदार्थः तत्र पदार्थद्वयं वर्तते तत्र अन्वयसहचारः सम्बन्धः तयोः मध्ये वर्तते इति वक्तुम् इच्छामश्चेत् तत्र किं भवेत् यत्र कारणमस्ति तत्र कार्यमपि भवति तदा वयं वदामः अन्वयसहचारः अन्वयः इति यदा शृण्मः तत्र मनसि भवेत् कारणम् अस्ति एव अन्वयः इत्युक्ते कारणम् अस्ति तत्र सहचारः नाम समानाधिकरण्यम् समानाधिकरण्यम् नाम तत्र अधिकरणम् समानम् इत्युक्ते द्वितीयमपि वर्तते तर्हि कारणमस्ति इति प्रथमतया जानीमः अन्वयः इति श्रुत्वा सहचारः तर्हि कार्यमपि वर्तते इति जानीमः तत्र उदाहरणं तन्तुः अपि पटः यत्र तन्तुः अस्ति तत्र पटः उत्पद्यते इति चिन्तयितुं शक्नुमः इदानीं व्यभिचारः व्यभिचारः नाम अन्वयः व्यभिचारः तर्हि अन्वयः इति कारणम् अस्ति व्यभिचारः नाम सहचारः नास्ति समानाधिकरण्यं नास्ति समानाधिकरण्यं नास्ति नाम कार्यं तत्र नास्ति तर्हि कारणम् अस्ति नाम कारणत्वेन अभिमतः पदार्थः अस्ति किन्तु एकनिमिष तत्र कस्यापि तत्र सङ्गणकस्य ध्वनिः भवति तत्र तर्हि व्यभिचार नाम कारणत्वेन अभिमतः पदार्थः अस्ति किन्तु कार्यम् इति यत् चिन्तयामः तत्तु नास्ति तत्र उदाहरणं तन्तुः तन्तुः यद्यपि अस्ति किन्तु घटः न उत्पद्यते तर्हि तन्तुः घटः तयोः मध्ये अन्वयव्यभिचारः सम्बन्धः भवति इति इदानीं तत्र व्यतिरेकसहचारः व्यतिरेक इति यदा शृणुमः मनसि भवेत् कारणं तत्र नास्ति व्यतिरेककारणं नास्ति अन्वयः कारणम् अस्ति इदानीं व्यतिरेकसहचारः व्यतिरेकसहचारः तर्हि व्यतिरेक नाम कारणं नास्ति सहचार नाम समानादिकरण्यं तर्हि कारणस्य अभावः तर्हि कार्यस्य अपि अभावः अस्ति तर्हि यत्र पृथ्वी नास्ति तत्र गन्धः अपि नास्ति इति उदाहरणम् तर्हि व्यतिरेकसहचारः इति सम्बन्धः तयोः मध्ये वर्तते. अपि अन्तिमं तत्र व्यतिरेकव्यभिचारः. व्यभिचारः नाम सहचारः समानाधिकरण्यं नास्ति, व्यतिरेक नाम कारणं नास्ति. तर्हि व्यतिरेककारणं नास्ति, अपि समानाधिकरण्यं नाम तत्र कारणस्य अभावः अस्ति किन्तु कार्यस्य अभावः नास्ति, नाम कार्यम् अस्ति. अतः तन्तुः, उदाहरणं तन्तुः नास्ति तथापि घटः उत्पद्यते, तर्हि तयोः मध्ये व्यतिरेकव्यभिचारः इति स्थितिः. अपि तत्र कुत्र भवति कारण, तत्र कार्यकारणभावः, तयोः मध्ये कार्यकारणभावः निश्चितः भवति इत्युक्ते, वयं दृष्टवन्तः गतवर्गे, तत्र ययोः मध्ये अन्वयसहचारः अपि भवेत्, अपि व्यतिरेकसहचारः अपि भवेत्. नाम यस्य अस्तित्वे द्वितीयस्य अस्तित्वं, यस्य अभावस्य अस्तित्वे द्वितीयस्य अभावस्य अस्तित्वम्. तर्हि तत्र पृथ्वी गन्धः इति स्वीकुर्मः, यत्र पृथ्वी अस्ति तत्र गन्धः अपि अस्ति, यत्र पृथ्वी नास्ति तत्र गन्धः अपि नास्ति. तदा वयं वक्तुं शक्नुमः, अस्तु तत्र पृथ्वी गन्धः तयोः मध्ये कार्यकारणभावः, नाम पृथ्वी इति कारणत्वेन गन्धः इति कार्यत्वेन स्वीकर्तुं शक्नुमः. विमला भगिनी.
आं महोदय, धन्यवादः.
समीचीनं वा इदानीं
दोषपूर्णेन पठितवती. प्रथमम् उदाहरणम् अहं चिन्तितवती तन्तुः घटः अस्ति, न तु पठने दोषः भवत् अत्र चिन्तनम्.
अस्तु भगिनि, अस्तु इदानीं समीचीनं खलु?
आमां समीचीनम्.
अस्तु अस्तु समीचीनम्. अस्तु, हा इदानीं तत्र गतवर्गे तत्र यत्र किञ्चित् क्लेशः आसीत् तत्र तम् एकवारं पठामः. तर्हि तत्र तत् किं कुर्मः, एतत् समीचीनमेव. अस्तु, हा अपि अस्तु. इदानीं तत्र गतवर्गे वाक्यद्वयम् आसीत्, परिच्छेदद्वयम् आसीत्, तत्र तत् पुनः पठामः तर्हि. अस्तु, तर्हि तत्र हा नीता भगिनी तत्र पठति वा. एवं च इति,
एवञ्च अन्वयसहचारज्ञानं कारणताग्रहे आवश्यकं, परन्तु क्वचित् अन्वयसहचारः न ज्ञायते अपि तु अन्वयव्यभिचारः ज्ञायते चेत् अपि न कारणत्वग्रहे अत्यन्तं क्लेशः. यदि तु
तावत्पर्यन्तं, तर्हि तत्र गतवर्गे उदाहरणं दत्तमासीत्, नाम तत्र दण्डः अस्ति किन्तु तत्र घटः न उत्पद्यते, तत्र हा तर्हि तत्र स्थितिः कः आसीत् तत्र, नाम तत्र लघुदण्डः, दण्डजातीय तत्र खण्ड तादृशः दण्डः स्वीकृतः, तर्हि तत्र घटः न तत्र उत्पादितः अभवत्. तर्हि तत्र दण्डः इति कारणम् इति चिन्तयामः, अपि घटः इति कार्यम् इति चिन्तयामः. तर्हि तत्र दण्डः अस्ति किन्तु कार्यं न अभवत्, तर्हि तयोः मध्ये तत्र किं चिन्तयामः, अन्वय
व्यभिचारः वर्तते,
व्यभिचारः कारणम् अस्ति,
कारणमस्ति कार्यं न सिद्ध्यते, तेन
कार्यं न सिद्ध्यते इति स्थितिः अस्ति. किन्तु तेन किं वयं किं चिन्तयामः तत्र अतः तत्र दण्डः घटं प्रति कारणं नास्ति इति चिन्तयामः वा
न न तथैव तत्र कारणं योग्यप्रकारेण न वर्तते इति
तत्र योग्यः दण्डः भवति चेत्
योग्यदण्डः भवति चेत्
कार्यम् उत्पद्यते भवति अतः तत्र वयं जानीमः तत्र पूर्वं जानीमः तत्र अन्वयसहचारज्ञानं तत्र तत्र प्रथमवाक्यम् इदानीम् एवं च
अन्वयसहचारज्ञानं कारणताग्रहे आवश्यकम्
कारणता अस्ति नाम पदार्थद्वयोः मध्ये कारणता अस्ति इति कदा वदामः यत्र
यत्र अन्वयसहचारज्ञानं वर्तते
अपि केवलम् अन्वयसहचार न अपि
केन कारणेन कार्यं
तत्र कुत्र निश्चितः भवति तत्र निश्चितः निश्चितम् अस्तु अस्तु ययोः मध्ये निश्चयेन कार्यकारणभावः वर्तते इति कदा वदामः वयं
यदा अन्वयसहचारज्ञानं कारणताग्रहे
न तत्र वयं तत्र वयं दृष्टवन्तः तत्र प्रायशः तत्र अस्तु एतस्य एतत् तत्र किं तत्र भवति वा तत्र ओ अत्र प्रायशः तत्र कुत्र अस्ति इति न स्मरामि अस्तु एकनिमिषः अभावः अपि भवेत् नीता भगिनि तर्हि तत्र अन्वयसहचारज्ञानम् अपि भवेत् व्यतिरेकसहचारज्ञानमपि भवेत् खलु
नाम
इत्युक्ते यत्र कारणं नास्ति
कारणं नास्ति
कार्यमपि नास्ति
नास्ति इति
नाम सहचारः अन्वयसहचारः किमस्ति
कारणम् अपि अस्ति कार्यम् अपि निष्पद्यते
कार्यमपि उत्पद्यते व्यतिरेकसहचारः
तत्र कारणं नास्ति कार्यम् अपि नास्ति
इति यदि द्वयमपि अस्ति चेत् तत्र निश्चयेन वयं वक्तुं शक्नुमः
केन कारणेन कार्यम्
तत्र कारणतः सम्बन्धः वर्तते तयोः मध्ये कारणतः सम्बन्धः वर्तते तर्हि कारणता ग्रहे ग्रहणं नाम कारणता अत्र अस्ति तस्य ज्ञानस्य उत्पादनार्थं तत्र अन्वयसहचारज्ञानम् आवश्यकम् खलु अन्वयसहचारज्ञानं नास्ति चेत् अत्र कारणता वर्तते इति न वक्तुमेव शक्नुमः खलु केवलम् अन्वयसहचारज्ञानम् अस्ति चेत् न वक्तुं शक्नुमः केवलं व्यतिरेकसहचारज्ञानम् अस्ति चेदपि न वक्तुं शक्नुमः द्वयमपि आवश्यकम् कारणता ग्रहणे तर्हि अन्वयसहचारज्ञानम् आवश्यकम् अस्ति कारणता ग्रहे इदानीं
महोदय एकः सन्देहः तत्र
वदतु भगिनि
तत्र व्यतिरेकव्यभिचारः इत्युक्ते तन्तुः अस्ति किन्तु घटं न भवति इति भवति किन्तु इदानीं व्यतिरेकव्यभिचारः इति तत्र
दण्डः न व्यतिरेकव्यभिचारः तन्तुः नास्ति किन्तु घटः उत्पद्यते
तन्तुः नास्ति घटः प्रति तन्तुः घटं प्रति कारणं न वा इति सन्देहे अस्तु व्यतिरेक तन्तुः नास्ति घटम् उत्पद्यते अस्तु इदानीम् उक्तं यत् दण्डः तत्र शलाका अस्ति चेत् घटः न उत्पद्यते तदपि व्यतिरेकव्यभिचारः वा महोदय
तत् व्यतिरेकसहचारः यतो तत्र
अन्वयव्यभिचारः
अन्वयव्यभिचारः तत्र अन्वयव्यभिचारः यतोहि
अन्वयव्यभिचारः इत्युक्ते कारणम् अस्ति किन्तु कार्यं न भवति अस्ति इति तत्र इदानीं कारणं तु अस्ति किन्तु तस्य योग्यता नास्ति यतोहि दण्डस्य स्थाने इदानीं शलाका इति स्वीकृतं तेन तु कार्यं न भवति एव
न भवति
तेन अन्वयम् अस्ति किन्तु व्यभिचारः भवति अस्तु
इति अस्ति
अस्तु महोदय
अस्तु समीचीनं हा अस्तु सः एव तदेव उदाहरणम् इदानीं तस्य उपयोगः भवति इदानीं तर्हि तत्र तर्हि इदानीं कारणता गृहे आवश्यकम् इति पठितम् इदानीं परन्तु
परन्तु क्वचित् अन्वयसहचार न ज्ञायते अन्वयसहचार न ज्ञायते इत्युक्ते तत्र कारणम् अस्ति कार्यम् अपि उत्पद्यते तस्य ज्ञानं नास्ति कार्यभाव रूपेण कारणं यत् अस्ति कार्यम् उत्पद्यते तस्य ज्ञानं नास्ति अपि तु अन्वयव्यभिचार ज्ञायते अन्वयव्यभिचारस्य ज्ञानम् अस्ति कारणम् अस्ति किन्तु कार्यं न उत्पद्यते इति ज्ञानम् अस्ति चेत् कारणत्वग्रहे न क्लेशः इत्युक्ते यथा कारणम् अस्ति कार्यम् अपि अस्ति कार्यं सिद्ध्यते चेत् यत् कारणमस्ति इति ज्ञानम् अस्माकं समीपे नास्ति परन्तु कारणम् अस्ति कारणं सति कारणे सति अपि कारणं कार्यं न उत्पद्यते इति ज्ञानं यदा अस्ति चेत् अपि वयं निश्चयेन वक्तुं शक्नुमः कारणता किं कारणम् अस्ति इति
तत्र अस्तु तत्र उदाहरणं स्वीकुर्मः दण्डः अपि घटः दण्डः अपि घटः तत्र दण्डः अपि घटः तयो मध्ये कार्यकारणभावः वर्तते
खलु
वर्तते अत्र यत् इदानीम् उक्तं परन्तु क्वचित् नाम कुत्रचित् अन्वयसहचारः न ज्ञायते अत्र ज्ञायते नाम न भासते इदानीं तत्र योग्यदण्डः नास्ति किन्तु तत्र लघुदण्डः अस्ति अपि दण्डः अस्ति किन्तु घटः न उत्पद्यते तर्हि तत्र किं भासते अस्मिन् सन्दर्भे कारणत्वेन अभिमतपदार्थः अस्ति किन्तु कार्यं नास्ति न उत्पद्यते अतः इदानीं किं भासते किं ज्ञानं भासते
अन्वयव्यभिचारस्य ज्ञानं भासते
भासते हा तथा भासते चेदपि क्लेशः न उत्पद्यते वयं जानीमः अस्तु अत्र न उत्पद्यते किन्तु तत्र किमर्थं न उत्पद्यते इति तस्य समाधानं दातुं शक्नुमः अस्तु दण्डः योग्यः नास्ति किन्तु दण्डः अपि घटः तयोः मध्ये कारणता नास्ति इति तत्र वयं वक्तुं सिद्धाः वा
कारणता तु अस्ति किन्तु तादृशी योग्यता नास्ति कारणे
अतः यद्यपि अन्वयव्यभिचारः एव भासते किन्तु तयोः मध्ये दण्डः अपि घटः तयोः मध्ये कारणता यत् अस्ति तत्तु न अपगच्छति कारणता या अस्ति सा तु न अपगच्छति कारणता वर्तते एव तयोः मध्ये अतः कारणत्वग्रहे न अत्यन्तं
क्लेशः
न अत्यन्तं क्लेशः यद्यपि भासते अन्वयसहचारः न भासते अन्वयव्यभिचारः एव भासते तत्र क्लेशः न भवति उदाहरणत्वेन तत्र दण्डः अपि तत्र पूर्वं तत्र किम् अन्यत् किमपि अपि दत्तमासीत् किन्तु तत्र दण्डः इति स्वीकुर्मः तत्र योग्यदण्डः नास्ति चेत् घटः न उत्पद्यते तर्हि तत्र अन्वयव्यभिचारः एव भासते किन्तु तेन न कापि हानि कारणता
विषये
ग्रहणे न कापि हानि तत्र कारणतः वर्तते एव इति अस्ति. अतः इति अस्य वाक्यस्य अर्थः यावत् अहम् अवगच्छामि. अस्मिन् विषये कोऽपि प्रश्नः एतावत् तत्र
अत्यन्तम्
अवगतम् अस्तु. अन्य कोऽपि प्रश्नः अस्ति वा अस्मिन् विषये एतावत्?
नो अवगतम्.
अस्तु इदानीम् अग्रे सरामः तर्हि. अस्तु अग्रे तत्र अन्य कोऽपि तर्हि तत्र एतावत्. हा तर्हि नरसिंहग्रे महोदय अग्रे.
आम् महोदय, यदि तु व्यतिरेकव्यभिचारज्ञानं भवति अर्थात् कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यम् उत्पद्यते तदा कारणता ज्ञानं नैव उत्पद्यते इति तदा कारणत्वे कारणत्वज्ञाने यदा अस्माकं कृते तत्र व्यतिरेकव्यभिचारज्ञानम् अस्ति चेत्
तत्र व्यतिरेकव्यभिचार इत्युक्ते किम् इति किञ्चित् वदतु.
व्यतिरेकव्यभिचार इत्युक्ते यत्र कारणं नास्ति तत्र कार्यमस्ति इति.
उदाहरणत्वेन
तत्र कारणं नास्ति, तत्र तन्तव नास्ति परन्तु घट उत्पद्यते. यदि तादृशज्ञानम् अस्ति चेत् तत्र कारणतज्ञानं न उत्पद्यते, कार्यकारणभावः न तत् ज्ञानं न उत्पद्यते.
हा तयोः मध्ये कारणता वर्तते इति ज्ञानमेव नोत्पद्यते खलु. नाम तत्र किं यतोहि तत्र व्यतिरेकव्यभिचार तस्य व्यभिचारस्य ज्ञानं तत्र कारणता ज्ञानार्थं किं किम् आवश्यकमस्ति?
अन्वयसहचार व्यतिरेकसहचार द्वयमपि आवश्यकं.
द्वयमपि आवश्यकं. तर्हि व्यतिरेकव्यभिचारस्य ज्ञानेन न कोऽपि लाभः
नास्ति.
हा कारणता ज्ञानार्थम्. अतः तत्र यत्र व्यतिरेकव्यभिचारज्ञानं भवति तत्र कारणता ज्ञानं न उत्पद्यते एव इति वक्तुं शक्नुमः. अस्तु अस्मिन् विषये कोऽपि प्रश्नः?
धन्यवादः.
आम् महोदय, भवती भवानेव अग्रे पठतु, किन्तु तस्मात् प्राक् केवलं द्रष्टुम् इष्टवान् तावदेव. तत्र यतोहि अस्मिन् विषये गतवर्गे किञ्चित् क्लेशः आसीत् इति कृत्वा तर्हि तत्र इदानीं स्पष्टता वर्तते वा सर्वेषां मनसि?
महोदय, इत्युक्ते तत्र कारणं जानीमः चेत् कार्यं न भवति चेदपि क्लेशः नास्ति अवगमने. कारणमेव न ज्ञातं चेत् कार्यं भवति चेत् तत्र न ज्ञातुं शक्नुमः एव इति.
सत्यं सत्यं भगिनि सत्यं. नाम प्रथमे किम् एतावत् किम् अस्ति, कारणता ज्ञानम् अस्ति, किन्तु कारणता ज्ञानविषये क्लेशः भवति न वा इति प्रश्ने सति न भवति. अन्वयविचारः
घटसामग्रीः पश्यामः तत्र घटः न दृश्यते चेदपि क्लेशः नास्ति, अस्तु घटः भवति इति. किन्तु तत्र किमपि वस्तुं पश्यामः किन्तु तस्य वस्तुनः कारणानि तत्र न दृश्यन्ते चेत् तत्र क्लेशः भवति, केन कारणेन उत्पत्तिः अभवत् इति.
आमामां हा सत्यं. हा अतः तत्र प्रथमे एतावत् किमस्ति, कारणता अस्ति इति जानीमः, किन्तु कुत्रचित् अन्वयव्यभिचारः पश्यामश्चेदपि अस्माकं मनसि तत्र कारणता नास्ति इति सन्देहः न भवति. कारणता वर्तते, अन्यात् कारणात् अत्र
कार्यं न अभवत् इति
समाधानं दातुं शक्नुमः एतावत्. हा अत्र किमस्ति, एतावत् न जानीमः तत्र कारणता सम्बन्धः वर्तते न वा. केवलं व्यतिरेकव्यभिचार केवलं तस्य ज्ञानं भवति चेत् तत्र अस्माकं मनसि कारणता वर्तते इति ज्ञानमेव न उत्पद्यते.
कारणता वर्तते इति ज्ञानमपि नास्ति, कारणं इति अपि केवलं कार्यमेव दृश्यते इत्यनेन
इति एव अस्ति
क्लेशः भवति तत्र.
तावदेव सत्यं भगिनि,
धन्यवादः.
अतः अत्र एतावत् कारणता ज्ञानमस्ति, तस्य विषये क्लेशः न उत्पद्यते यदि कुत्रचित् वयम् अन्वयव्यभिचारः अस्ति इति पश्यामः. केवलं व्यतिरेकव्यभिचारः इति इति तस्य ज्ञानं भवति चेत् अस्तु, कारणता निर्धारणार्थं तस्मात् कोऽपि लाभः नास्ति, तस्य ज्ञानात् ज्ञानेन न कोऽपि लाभः. कारणता वर्तते न वा इति, अतः कारणता न उत्पद्यते इति. अस्तु समीचीनं. अस्तु अग्रे तर्हि नरसिंहग्रे महोदय, इदानीं तत्र एतत् वयं गतवर्गे किञ्चित् पठितवन्तः किन्तु
असमवेतगुणानां ज्ञानं कथं तथा च अन्वयव्यतिरेकव्यभिचारज्ञानाभावे सति अन्वयव्यतिरेकसहचारज्ञानमुत्पद्यते तेन च कारणताग्रहः भवति. एतादृशकारणताग्रहे सति यत्र कश्चित् गन्धः अनुभूतः पृथ्वी नोपलब्धा चेत् अपि तत्र सा स्थितिः अनुमीयते. इत्युक्ते तत्र पृथिवी अस्ति इति अनुमीयते. तथा च अन्वयव्यतिरेक व्यभिचारज्ञानाभावे इत्युक्ते अन्वयव्यभिचारज्ञानं व्यतिरेकव्यभिचारज्ञानं तेषाम् अभावे अपि अन्वयसहचारज्ञानं व्यतिरेकसहचारज्ञानं भवति उत्पद्यते तत्
नाम यत्र अन्वयव्यभिचारज्ञानम् अस्ति चेत् तत्र अन्वयसहचारज्ञानं न भवति,
न भवति.
अतः यत्र अभावे तत्र तादृशं ज्ञानं नास्ति, तत्र एव एतादृशज्ञानं तत्र भासते अथवा भवितुम् अर्हति,
अनन्तरं कारणता गृहे कार्यकारणसम्बन्ध अपि भवति तेन च कारणतः भवति.
यतोहि अन्वयसहचारः अपि अस्ति, व्यतिरेकसहचारः अस्ति.
एतादृशकारणताग्रहे सति यत्र कश्चित् गन्धः अनुभूतः पृथ्वी नोपलब्धा चेदपि तत्र
क्वचित् गन्धः कुत्रचित् गन्धः
क्वचित् क्षम्यतां क्वचित् गन्धः अनुभूतः पृथ्वी नोपलभ्यते चेदपि तत्र सा अस्ति इति अनुमीयते. यत्र किमपि गन्धः भवति परन्तु पृथ्वी न दृश्यते तत्र, परन्तु वयं जानीमः कार्यकारणसम्बन्धः, अतः वयम् अनुमानं कर्तुं शक्नुमः तत्र पृथ्वी भवेत् वा इति अनुमानं कर्तुं शक्नुमः.
तत्र अन्वयसहचारः अपि अस्ति, व्यतिरेकसहचारः अस्ति, तत्र गन्धः अपि पृथ्वी अपि गन्धः, तयोः मध्ये तादृशः सम्बन्धः अस्ति. तर्हि तत्र कुत्रचित् गन्धः अनुभूतः नाम गन्धः अस्ति इति ज्ञानं भवति, पृथ्वी न उपलब्धा नाम पृथ्व्याः प्रत्यक्षज्ञानं न भवति चेदपि वयम् अनुमानं कर्तुं शक्नुमः तत्र सा अस्ति. तत्र यतोहि तत्र अन्वयसहचारः तयोः मध्ये भवति. अस्तु समीचीनं महोदय. अतः तत्र यद्यपि न दृश्यते किन्तु अनुमानेन वयम्
अनुमानीमः किमपि रूपेण पृथ्वी भवति तत्र इति वयम्
इति जानीमः. समीचीनं. समीचीनं महोदय. अस्तु इदानीम् अग्रे मृणालिनी भगिनी अग्रे.
धन्यवादः.
धन्यवादः महोदय.
एवं च उपवनात् समागते वाते तादृशे च जले यः सुरभिगन्धः अनुभूयते सः वस्तुतः पृथिव्याः एव, परं सा पृथिवी जलेन संयुक्ता पृथ्वीकणाः जले विद्यमाना अपि अतिसूक्ष्मत्वात् न चक्षुषा गृह्यन्ते. पृथ्वीगन्धस्तु समवायेन पृथिव्यां स्थितोऽपि स्वसमवायी संयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति. एवं च उपवनात् समागते वाते यदि उपवने वयं जलयुक्त सुरभिगन्ध अनुभूयमानः भवामः
तत्र सुरभिगन्धः तस्य अनुभवः भवति तदा सः गन्धः
पृथिव्यः एव
सः गन्धः जलस्य गन्धः वा अथवा किम्
न पृथ्वीत्वम् अस्ति तत्र
हा पृथिव्याः एव पृथिव्याः एव सुरभिगन्धः एव यः गन्धः यः सुरभिगन्धः अनुभूयते सः वस्तुतः पृथिव्याः एव
परं सा पृथिवी जलेन संयुक्ता
हा वयं चिन्तयामः जले 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 गन्धः वर्तते किन्तु साक्षात् किम् अस्ति परन्तु परं नाम परन्तु सा
सा पृथिवी जलेन संयुक्ता अस्ति
हा तत्र किमर्थं गन्धस्य अनुभवः भवति यतोहि तत्र पृथ्वी अपि अस्ति पृथ्वी जलेन संयुक्ता अस्ति संयोगसम्बन्धः वर्तते पृथ्वी अपि जलं तयोः मध्ये संयोगसम्बन्धः वर्तते हा अग्रे
पृथ्वीकणाः जले विद्यमाना अपि तु अपि अतिसूक्ष्मत्वात् न चक्षुषा गृह्यन्ते किमर्थं तर्हि अतिसूक्ष्मकणाः भवन्ति जलेन संयुक्ताः अतः वयं कार्यम् अनुभवामः परन्तु कारणं साक्षात् द्रष्टुं न शक्नुमः
हा इति अस्ति समीचीनं हा तत्र पृथ्वीकणाः सन्ति किन्तु ते विद्यमानाः ते सन्ति एव ते वर्तन्ते अत्र किन्तु जले वर्तन्ते किन्तु अतिसूक्ष्मत्वात् नाम अतिसूक्ष्मपरिमाणं तेषाम् अस्ति इति कृत्वा तत्र कणाः चक्षुषा न गृह्यन्ते चक्षुषा तेषां ग्रहणं नाम ज्ञानं न भवति अस्तु समीचीनम् अग्रे
पृथ्वीगन्धस्तु समवायेन पृथिव्यां स्थितोऽपि अत्र पृथ्वीगन्ध तु समवायसम्बन्धेन भवति खलु गुणगुणिनोः
उत्तमं हा गुणगुणिनोः समवायसम्बन्धः समीचीनं
समवायसम्बन्धः स्वसमवायी संयुक्तत्वसम्बन्धेन संयुक्तत्वेन संयुक्तत्वसम्बन्धेन
संयुक्तत्वसम्बन्धेन
संयुक्तत्व अस्ति वा संयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति तदेव उक्तं खलु समवायी संयुक्तत्वसम्बन्धेन
जले स्थितः नाम गन्धः पृथ्वीगन्धः कुत्र अस्ति पृथिव्याम् अस्ति खलु केन सम्बन्धेन वर्तते पृथिव्यां
समवायी संयुक्तत्वसम्बन्धेन
न पृथिव्यां गन्धः केन सम्बन्धेन वर्तते
समवायिसम्बन्धेन
समवायसम्बन्धेन पृथिव्यां वर्तते अस्ति स्थितः गन्धः स्थितः अस्ति पृथिव्यां समवायसम्बन्धेन समवायेन अस्ति किन्तु तत्र जले अपि स्थितः भवति जले कथं तत्र गन्धः भवति इति तत्र केन सम्बन्धेन इति एतेन सम्बन्धेन अत्र अस्ति इति उक्तं किन्तु तस्य विवरणं किञ्चित् पश्यामः तर्हि समीचीनं भगिनि एतावत् समीचीनम् अस्ति इदानीं
संयुक्तत्वमपि अस्ति
तस्य विवरणं परिशीलनीयमस्ति. अस्तु, इदानीं तत्र अग्रे तत्र विमला भगिनी, विमला भगिनी धन्यवादः, समीचीनं. अस्तु, इदानीं विमला भगिनी तत्र अधोभागे अधोभागे तत्र फुट् नोट् इति अस्ति खलु, तत् एकवारं
एकनिमिषं महोदय, किञ्चित् बृहत् करणीयं. फुट् नोट् नास्ति, चिन्ता. स्वं गन्धः स्वसमवायिनी पृथिवी तत् संयुक्तं जलं संयुक्तत्वं जले इति अनेन परम्परासम्बन्धेन पृथिवी गन्धः जले प्राप्तः. तत्र एवं भाति स्वम् इत्युक्ते गन्धः.
हा, तत्र यत् वयं दृष्टवन्तः स्वं स्वसमवायि संयुक्तत्वसम्बन्धेन स्व इत्युक्ते
गन्धः
गन्धः
स्वं समवायि अस्ति जलं पृथिवी पृथिवी
खलु समवायि समवायिनी इति अस्ति
समवायिनी इति पृथिवी
इति अस्ति. हा, तत्र समवायि इत्युक्ते किम् अस्ति? समवायि
यस्मिन् समवाय यः समवायसम्बन्धेन अस्ति तत् समवायि.
समीचीनं, नाम इनि प्रत्ययः तत्र गुण यस्य अथवा यस्मिन् गुणः वर्तते सः गुणि, तत्र इनि प्रत्ययः इति वदामः.
गुणि गुणिनि अस्तु, समवायिनि.
इदानीं स्त्रीलिङ्गे न तत्र
प्रथमा प्रथमा विभक्ति अस्तु.
हा, गुणि
समवायिनी
गुणि
गुणिनी गुणिनी
गुणिनी इति स्त्रीलिङ्गे, गुणि इति ह्रस्वकारः नपुंसकलिङ्गे.
अस्तु,
नपुंसकलिङ्गे नाम अत्र यस्य अथवा यस्मिन् समवायसम्बन्धः वर्तते
सः समवायि.
इदानीं पृथिव्यां समवायसम्बन्धः वर्तते
स्त्रीत्वा समवायिनी,
अतः सा समवायिनी पृथ्वी समवायिनी भवति. कस्य स्व स्व इति नाम गन्धः समवायसम्बन्धेन पृथिव्यां वर्तते इति अर्थः. नाम स्वसमवायिनी पृथ्वी नाम गन्धस्य समवायिसम्बन्धेन आश्रयः पृथ्वी अस्ति इति अर्थः. अतः स्वसमवायिनी पृथ्वी
पृथिवी अस्ति. तत् संयुक्तं जलम् इत्युक्ते पृथिवी पृथिवी जलो जलयोः मध्ये यत् संयोगः अस्ति.
हा, इदानीं मध्ये इत्युक्ते तत् नाम पृथिवी
पृथिवी पृथिव्या संयुक्तं जलं तत् संयुक्तत्वं जले अस्ति इति.
हा, इदानीं तत् संयुक्तं नाम तेन संयुक्तम् अथवा तया संयुक्तं जलं. हा, तया संयुक्तं जलं तया संयुक्तं जलं
जले
तत्र जलं नाम तत्र जलमपि पृथ्वी तयोः मध्ये संयोगसम्बन्धः.
संयुक्तत्वं जले अस्ति, तत् संयुक्तत्वं जले अस्ति, संयोगसम्बन्धः जले
जले भावः. समीचीनं, तत्र संयुक्तत्वं
जले अस्ति,
जले अस्ति. अतः जलं संयुक्तत्वं तत्र जलं तत् संयुक्तं जलं तर्हि संयुक्तत्वं जले अस्ति.
हा, तेन कारणेन पृथिव्या पृथिव्याः गन्धः जले प्राप्तः अस्ति परम्परासम्बन्धेन इति.
हा, इति भवति. तर्हि तत्र वयं किं कृतवन्तः इत्युक्ते तत्र गन्धः इति अस्ति, गन्धः पृथिव्यां तत्र समवायसम्बन्धेन अस्ति, तत्र समवायसम्बन्धः अपि तत्र पृथ्वी अपि तत्र जलं
संयोगसम्बन्धेन सह.
हा, जलं तत्र समवाय तत्र संयोगसम्बन्धः
संयोगसम्बन्धः अस्ति,
संयोगसम्बन्धः. अतः वयं वदामः तर्हि आहत्य तत्र गन्धः परम्परासम्बन्धेन नाम यत्र सम्बन्धस्य तत्र आवलिः अस्ति, केवलम् एकः सम्बन्धः न किन्तु एकस्य अनन्तरम् अन्यसम्बन्धः इति यदा भवति तत्र वयं वदामः
परम्परासम्बन्धः।
किन्तु परम्परासम्बन्धः इति यदि वदामः तत्र स्थूलरीत्या वदामः अस्तु तत्र अनेके सम्बन्धाः सन्ति इति, किन्तु अत्र साक्षात् कः सम्बन्धः परम्परासम्बन्धः अस्ति इति वक्तुं शक्नुमः, नाम
संयोगसम्बन्धः इति अस्ति इति
न न प्रथमतया समवायः
समवाय तत्पश्चात् संयोगः
अतः स्वसमवाय तत्र किम् आसीत् तत्र स्वसमवायि संयुक्तत्वसम्बन्धेन अतः स्वसमवायि संयुक्तत्वसम्बन्धेन जले वर्तते पृथ्वीगन्धः। पृथ्वीगन्धः समवायसम्बन्धेन पृथिव्यां वर्तते, किन्तु पृथ्वीगन्धः
संयोगसम्बन्धेन समवायसम्बन्धेन जले पृथिव्याम् अस्ति, परन्तु संयोगसम्बन्धेन जले अस्ति।
न न न न संयोगसम्बन्धेन जले नास्ति गन्धः,
पृथिवी अस्ति, पृथिवी अस्ति,
पृथ्वी अपि संयोगः, पृथ्वी अपि जल, पृथ्वी संयोगसम्बन्धेन जले अपि तादृश
पदार्थयोः मध्ये महोदय पदार्थयोः मध्ये संयोगसम्बन्धः किल, जल
सत्यं सत्यं संयोगसम्बन्धः एव, अतः वयं वदामः तत्र गन्धः स्वसमवायि संयुक्तत्वसम्बन्धेन जले वर्तते, गन्धः स्वसमवायि संयुक्तत्वसम्बन्धेन जले वर्तते इति, अतः तत्र परम्परा सम्बन्धः एकस्य अनन्तरं तत्र सम्बन्धस्य आवलिः इति तत्र स्वसमवायि संयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति, स्व नाम
गन्ध, गन्धस्य ज्ञानं जनयति इत्युक्ते ज्ञानं,
तत्र गन्धः जले अस्ति इति ज्ञानं
जनयति
जनयति इति अस्ति। अस्तु समीचीनम्, अग्रे
एवं पृथिवी अनिलयोः कदाचित् अनुभूयमानः शीतस्पर्शः अपि न स्वाभाविकः किन्तु कृत्रिमः, जलगतशीतस्पर्श एव स्वसमवायसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते, तेजसः उष्णस्पर्शस्यापि इत्थमेव पृथिवी जलवायुषु भानं समर्थनीयम्। एवं पृथिवी अनिलयोः कदाचित् अनुभूयमानशीतस्पर्शः अपि च अपि न स्वाभाविकः किन्तु कृत्रिमः, अत्र पृथिव्याः अपि च यत् शीतस्पर्श अनुभूयते अपि च वायोः,
अनिलः नाम
वायोः वायोः यदा कदा अनुभूयमानशीतस्पर्श तत् स्वाभाविकः नास्ति, परन्तु
गृहीतः शीतस्पर्शः कुत्र वर्तते साक्षात् तस्य आश्रयः कः,
वायुः पृथिवी अपि जलं
जल
जल
केवलं
जले अस्ति, जले अस्ति
तत्र, जले अस्ति तत्र स्पर्शः, तत्र शीतस्पर्शः अस्ति अपि उष्णस्पर्शः अस्ति,
शीतोष्ण
अनुष्ण
अनुष्णशीत स्पर्श अपि
अस्ति, तर्हि तत्र
जले
तेजसी अस्ति, तेजसी वर्तते, किन्तु शीतस्पर्श पृथिव्यामपि अनिलयोः यदि तत्र अनुभवामः वयं जानीमः तत् सः स्पर्श न
स्वाभाविकः न, परन्तु जले 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 अस्ति तस्मात् गृहीतः अस्ति,
कृत्रिमः नाम
गृहीतः
आरोपितः,
आरोपितः
सत्यं नास्ति, तादृशं भासते किन्तु सत्यं नास्ति, कृत्रिमः आरोपितः जलगत
जलगतशीतस्पर्शः एव स्वसमवायिसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते इत्युक्ते जल यस् शीतस्पर्श जले अस्ति तत् समवायसम्बन्धेन जले अस्ति तेन संयुक्तः पृथिवी अपि च वायुः तयोः अपि एवमेव शीतस्पर्शः अस्ति इति भाति इति ज्ञानं भवति
भवति समीचीनम् इति प्रतीयते हा तत्र केवलम् एकः एव अंशः तत्र स्थितः कः स्थितः अस्ति
शीतस्पर्शः
सा जलगतशीतस्पर्शः अपि तयोः इति तत्र
पृथिवी अपि च अनिलः
विभक्ति
तयोः तयोः षष्टि
हा इति रूपं किन्तु अत्र
गन्धेन तस्मिन् तयोः सप्तम्य
यतोहि तेषु स्थितः
तेषु अस्ति आम् तस्मिन्
तेषु नाम पृथिव्यां स्थितः
अपि च अनिले अपि स्थितः
अतः तत्र केवलम् एतद् तत्र सप्तमी विभक्ति अस्ति
सप्तमी
तयोः इति सप्तमी तत्र स्थितः इति अस्ति अस्तु अग्रे
तेजसः षष्टिविभक्ति महोदय तेजसः उष्णस्पर्शस्य अपि इत्थमेव पृथिवी जल वायुषु तस्मिन् सप्तमी अस्ति भानं समर्थनीयं तथा अस्माभिः अवगमनीयं यत् तेजसि यत् उष्णस्पर्शः अस्ति तदेव पृथिव्यां जले अपि च वायौ अस्माभिः अनुभूयते इति
यदि वयं चिन्तयामः अस्तु तत्र अस्यां पृथिव्याम् उष्णस्पर्शः अस्ति इति यदि इति भासते तदा अस्माकं ज्ञानं भवेत् न अत्र साक्षात्
तेजसः तेजसः अस्ति तस्मात् आरोपितः इति तस्मात् गृहीतः इति गृहीतः
इति भवति समीचीनं अस्तु इदानीं धन्यवादः भगिनि समीचीनं
धन्यवादः महोदय
हा अस्तु तर्हि पद्मा भगिनि इदानीं तत्र तत्र चित्रं दृष्ट्वा किञ्चित् वदति वा
कुतः जि पठनीयं
तत्र चित्रम् अधोभागे अस्ति खलु चित्रम्
अस्ति तत्र जलम् अस्ति उपरि शीतस्पर्शः अस्ति इत्युक्ते जलस्य जलस्य लक्षणं गुणः अस्ति शीतस्पर्शः शीतस्पर्शवत्वं जलस्य लक्षणं तद् समवायसम्बन्धेन जले वर्तते यतः गुणगुणिनोः मध्ये समवायसम्बन्धः अतः जलम् इति द्रव्यं शीतस्पर्शः इति गुणः द्रव्यगुणयोः मध्ये समवायसम्बन्धः अनन्तरं घटः तद् घटः इति पृथ्वीपदार्थः परन्तु जलेन तद् संयोगः अस्ति तद् निर्माणसमये वयं जलं स्थापयामः अतः जलपदार्थेन तत्र संयोगः अस्ति पृथ्वीपदार्थः अतः संयोगसम्बन्धः जलम् इति एकद्रव्यं घटः इति पृथ्वीद्रव्यं जलपृथिव्योः मध्ये संयोगसम्बन्धः भवति अतः वयं यदा घटं स्पृशामः वयं तत्र शीतस्पर्शं वयं अनुभवामः चेत् तद् जलेन एव भवति पृथिव्याः लक्षणं तु नास्ति पृथिव्याः लक्षणं
गन्धः तर्हि उत्तमं तर्हि शीतस्पर्शः केन सम्बन्धेन वर्तते घटे
परम्परासम्बन्धेन एव
हा तत्र अपि न्यायशास्त्रीया वदतु तत्र स्वसमवायि
संयुक्तत्व शीतस्पर्श परम्परासम्बन्धेन एव तत्र घटे स्पर्शज्ञानं भवति
हा समीचीनं भगिनि हा स्वसमवायि स्वसमवायि इत्युक्ते एतावत्
स्वसमवायि इत्युक्ते जलस्य लक्षणमस्ति शीतस्पर्शत्वं
हा इति समीचीनम्।
अतः तद् समवायसम्बन्धेन भवति। अतः स्वसमवायी इत्युक्ते जलस्य शीतस्पर्शयोः मध्ये समवायसम्बन्धः, तदेव स्वसमवायी। अनन्तरं संयुक्तत्व इत्युक्ते संयोगसम्बन्धः, तत्र जल पृथ्वीपदार्थयोः मध्ये संयोगसम्बन्धः अस्ति, तदेव संयुक्तत्व इति पदेन। अनन्तरं संयुक्तत्वेन शीतस्पर्शस्य परम्परासम्बन्धेन एव शीतस्पर्शः घटे भवति।
समीचीनं भगिनि। शीतस्पर्शः स्वसमवायि संयुक्तत्वसम्बन्धेन
सम्बन्धेन घटे
वर्तते इति भवति। समीचीनम्। हा अस्तु, इदानीं तत्र अति स्वच्छे
प्रश्नः महोदय, तत्र जलं घटे स्थापितं जलम् इति अपि भवति वा?
न जानीमः भगिनि, यतोहि तत्र केवलं संयोगः इति एव उक्तं खलु, तत्र घटे वर्तते वा, घटस्य उपरि जलं स्थापितं वा,
तत्र घटस्य मध्ये
नास्ति।
घटोत्पत्तेः समये स्थापितं जलम् इति उक्तम्,
उक्तवती, किन्तु यदा तत्र अनुभवामः तत्र एषा स्थितिः अस्ति तावदेव।
वयं यदा घटं स्पृशामः तदा अस्माभिः शीतस्पर्शः ज्ञायते चेत् तद् उत्पत्तिसमये स्थापनीयम्।
अथवा अनन्तरमपि यदि तस्य उपरि किञ्चित् जलं तत्र स्थापयामः, तत्र जलपतनं भवति चेदपि तत्र शीतस्पर्शः भवति इति एव। तत् नाम तत्र यदा कदा तत्र शीतस्पर्शः घटे अनुभूयते तदा वयं जानीमः तत्र जलं निश्चयेन वर्तते,
जलस्य संयोगेन
एव भवति इति तावदेव। तत्र एकनिमिषं भगिनि, शोभभगिनी, तत्र भगिन्याः तत्र इच्छा एषा नासीत् इति मन्ये, नाम तत्र केवलं तदेव जलम् इति, किन्तु उदाहरणार्थं तत्र स्थापनसमये अपि जलम् आसीत् खलु इति प्रायशः वक्तुम् इष्टवती इति मन्ये।
पद्माभगिनीसमये स्थापितम् आसीत् चेत् तत्र संयोगसम्बन्धः न तिष्ठति इति मम चिन्तनम्
आसीत्। जलमपि घटं तयोः मध्ये संयोगसम्बन्धः, किन्तु केवलम् उदाहरणार्थं तत्र जलं कथं तत्र घटे भवति इति नाम अस्तु, तत्र समा उत्पत्तिसमये तत्र जलमपि भवेत् खलु इति, अतः तत्र तदेव कारणम् इति तस्याः चिन्तनं नासीत्, केवलम् उदाहरणम् आसीत् तावदेव।
अस्तु,
अतः तत्र यदि तत्र पुरातनघटः अस्ति तत्र जलमेव तस्मिन् नास्ति, तस्य उपरि किञ्चित् जलं स्थापयामः तदा शीतस्पर्शः भवति चेत् अतु अस्तु, इदानीं यत् जलम् अस्माभिः स्थापितं तेन एव शीतस्पर्शः अनुभूयते इति अस्ति, तत्तु समीचीनम्। अस्तु अस्तु तर्हि पद्मभगिनी अग्रे।
अति स्वच्छे गङ्गाजले प्रतीयमानाः नीलिमा अपि पार्थिवभागानाम् एव शुक्लातिरिक्तरूपविशेषाणां पृथ्वीमात्रवृत्तित्वम् एवं रसे अपि। तत्र अति स्वच्छे गङ्गाजले, गङ्गाजले तत्र जलस्य लक्षणं तु शीतस्पर्शत्वमेव, तत्र रूपं तु नास्ति एव, अभास्वरत्वरूपमेव भवति। भास्वरत्वरूपं तेजसि भवति, अभास्वरत्वरूपं जले भवति, परन्तु अन्यत् रूपं सर्वं पीतः शुक्लः अनन्तरं तत् षड्विध रूपाणि सर्वं पृथिव्याम् एव भवति। अतः गङ्गाजले वास्तविकतया तत्र अभास्वरशुक्लत्वमेव, परन्तु वयं यदा पश्यामः तत्र नीलत्वं वयं पश्यामः चेत् तद् पृथ्वीसम्बन्धेन एव भवति, न तु जलसम्बन्धेन।
तत्र पार्थिवपदार्थः सन्ति इति
पार्थिवपदार्थेन एव, शुक्ल अतिरिक्तरूपविशेषाणां पृथ्वीमात्रवृत्तित्वं शुक्लम् अतिरिक्त्य अन्यरूपाणि तत्र पीतवर्णः हरितवर्णः कपीशवर्णः तत्सर्वं पृथ्वीमात्रे एव भवति पृथ्व्याम् एव विद्यते अन्यत्र नास्ति अतः नीलत्वं जले कदापि जलत्वेन न भवति पृथ्वीसम्बन्धेन एव
इति भवति समीचीनं भगिनि अस्तु तथैव तत्र रूपस्य या स्थितिः सा एव स्थितिः इदानीं रस
एवं रसे अपि एतादृशम् एव रसे अपि रसनग्राह्यत्वे सति गुणत्वं रसस्य लक्षणम् इति वयं पठितवन्तः अतः तत्र रसनायाम् एक पृथ्वीपदार्थः वयं स्थापयामः चेत् पृथ्वीत्वम् अस्माभिः स्पर्शमानः भवति एव स्पर्शत्वं भवति एव परन्तु तद् तद् किञ्चित् तद्
यदि तत्र जले मधुररसं न अनुभवामः अन्यत् रसम् अनुभवामः तर्हि तत्र वयं जानीमः तत्र पार्थिवपदार्थः
अस्ति
इति यतोहि तत्र जले केवलं मधुररसम् एव मधुररसम् अतिरिक्त अन्य रस तत्र रसः अस्ति चेत् तत्र पार्थिवपदार्थः तत्र भवेत् जलेन संयुक्तः भवेत् इति अस्माकं चिन्तनं भवति अस्तु अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र योगेन्द्रमोदी अग्रे
सर्वत्र च वस्तुतः रूपादीनाम् अनाश्रये अपि द्रव्ये स्वसमवायिसंयुक्तत्वरूपपरम्परासम्बन्धस्य एव बाणनियामकत्वम् नियामकत्वम् एवम् एव शब्दस्य आकाशगुणस्य वायौ ज्ञानस्य आत्मगुणस्य शरीरे बाणं पूर्वोक्तेन स्वसमवायिसंयुक्तरूप सम्बन्धेन संयुक्तत्वरूपसम्बन्धेन एव समर्थनीयम् अतः सर्वत्र च वस्तुतः रूपादीनाम् अनाश्रये अपि द्रव्ये स्वसमवायिसंयुक्तत्वरूपादीनां रूपादीनाम् इत्युक्ते
गुणानां रूपं रसः इति गुणा तेषां अनाश्रये अपि द्रव्ये इत्युक्ते किम्
अनाश्रये इति द्रव्ये इत्युक्ते यतः शीतस्पर्शः अस्ति तत्र आश्रयः अस्ति जलम् इति चिन्तयामि तत् अनाश्रये अपि द्रव्ये इत्युक्ते घटे
समीचीनं महोदय तत्र
घटे अस्ति सः
द्रव्ये अनाश्रये द्रव्ये नाम यत्र आश्रयः नास्ति
वर्तते
समीचीनं महोदय नाम यथा शीतस्पर्शः स्वस्य तस्य आश्रयः जलं किन्तु शीतस्पर्शः घटे
घटे वर्तते
इति भासते रूपादीनां भानं नाम भासते तत्र भानं नियामकत्वं तत्र रूपादीनां भाननियामकत्वं नाम यत्र भासते शीतस्पर्श अनाश्रये घटे भासते अथवा गन्धः अनाश्रये
जले भासते
अथवा उष्णस्पर्शः अनाश्रये वायो भासते तदा किं नियामकत्वम् इत्युक्ते तत्र नियमः एतद् भवेत् किं तत्र
स्वसमवायिसंयुक्तत्वरूपपरम्परासम्बन्धस्य एव नियमकत्वं
यदि शीतस्पर्शः घटे अनाश्रये घटे वर्तते तत्र समवायसम्बन्धः नास्ति कः सम्बन्धः अस्ति परम्परा परम्परासम्बन्धः परम्परासम्बन्धः केवलं तत्र सूक्ष्मरीत्या इति नास्ति तत्र केवलं स्थूलरीत्या वदामः परम्परासम्बन्धः किन्तु सम्यक् वक्तुम् इच्छामश्चेत् तत्र किं वदामः
स्वसमवायसंयुक्तत्वरूपपरम्परा
नाम परम्परासम्बन्धस्य एकविधमस्ति स्वसमवायसंयुक्तत्वसम्बन्धः तत्र यदि तत्र वयम् एतत् चिन्तयामः तत्र नाम तत्र पुस्तकम् अथवा तत्र हा घटः अस्ति घटे तत्र तत्र रक्तवर्णः तत्र एतत् चिन्तयामः केवलम् उदाहरणार्थं तत्र तत्र घटः अस्ति घटः कपाले अस्ति यतोहि तत्र कपालः अवयवः अस्ति घटस्य तर्हि घटः कपाले वर्तते अपि घटे तत्र रक्तवर्णः रक्तरूपम् अस्ति इति चिन्तयतु रक्तरूपम् अस्ति तर्हि एतत् रक्तरूपं वयं वक्तुं शक्नुमः तत्र रक्तरूपं घटे वर्तते पुनः घटः घटः कपाले वर्तते अतः रक्तरूपं कपाले वर्तते
कपाले अपि वर्तते
इति वक्तुं शक्नुमः तत्र भवति परम्परासम्बन्धः यत्र साक्षात् सम्बन्धः नास्ति किन्तु सम्बन्धद्वयं सम्बन्धत्रयं सम्बन्धस्य आवलिः नाम एकस्य अनन्तरम् एकः सम्बन्धः इति यत्र भवति तत्र नामकरणं केवलं साधारणनामकरणं परम्परासम्बन्धः इति किन्तु अत्र कीदृशपरम्परासम्बन्धः इति वक्तुं शक्नुमः तत्र स्वसमवायि संयुक्तत्वसम्बन्धः सम्बन्धः तादृश नाम संयुक्तत्वरूप कीदृशपरम्परासम्बन्धः इत्युक्ते स्वसमवायि संयुक्तत्वपरम्परासम्बन्धः इति तत्र विशिष्टपरम्परासम्बन्धः स्वसमवायसंयुक्तत्वपरम्परासम्बन्धेन सम्बन्धस्य एव भाननियामकत्वं तद् तदेव भवति तेन एव सम्बन्धेन शीतस्पर्शः अनाश्रये घटे भवति तेनैव सम्बन्धेन गन्धः अनाश्रये जले वर्तते तेनैव सम्बन्धेन उष्णस्पर्शः अनाश्रये वायौ वर्तते हा अस्तु अग्रे
एवमेव शब्दस्य आकाशगुणस्य वायौ इत्युक्ते शब्दस्य आश्रयः आकाशगुणः तथापि वायौ अस्ति इति अनुभवामः
तदा अस्माकं चिन्तनं किं भवेत् केन सम्बन्धेन वायुः अस्ति केन सम्बन्धेन
संयुक्तत्वसम्बन्धेन
वायुः अस्ति समीचीनं हा तथैव अस्ति अपि अग्रे
ज्ञानस्य आत्मगुणस्य शरीरे भानम् इत्युक्ते शरीरे भानम् अस्ति परन्तु ज्ञानस्य आश्रयः आत्मा अस्ति परन्तु ज्ञानः शरीरे वर्तते इति भानं भवति अतः ज्ञानशरीरयोः सम्बन्धः स्वसमवायसंयुक्तत्वरूपसम्बन्धः
तत्र रूपमिति तादृशम् इति तावदेव महोदय यदि तत् त्यजति चेत् अपि न कापि हानि स्वसमवायसंयुक्तत्वसम्बन्धेन तत्र कीदृशपरम्परासम्बन्धः इति वक्तुं तत्र रूपम् इति पदं स्थापितं तावदेव विच् टैप् आफ् परम्परासम्बन्धः इत्युक्ते तत्र स्वसमवायसंयुक्तत्वविधपरम्परासम्बन्धः तत्र रूपम् इति केवलं तादृशम् एता तद्विध इति अस्तु अतः तत्र आत्मगुणस्य शरीरे भानं भवति चेत् तदेव भवति पूर्वोक्तेन स्वसमवायि संयुक्तत्वरूपसम्बन्धेन एव समर्थनीयं
समर्थनं भवति समर्थनीयं
हा अत्र अग्रे तत्र चित्रमस्ति तत्र शब्दः
आकाशे वर्तते आकाशः शब्दस्य आश्रयः अस्ति तथापि शब्दः वायौ अस्ति इति भानं भवति तत् केन सम्बन्ध अतः शब्दः वायौ केन सम्बन्धेन अस्ति स्वसमवायिसंयुक्तत्वसम्बन्धेन वायौ अस्ति परम्परासम्बन्धेन
आकाशः शब्दस्य किं भवति
आश्रयः
तत्र समवायी भवति
समवायिसम्बन्धः अस्ति
हा अतः स्वम् इत्युक्ते शब्दः स्वसमवायी इत्युक्ते आकाशः स्वसमवायी इति वदामश्चेत् आकाशः पर्यन्तं गच्छामः तदनन्तरं संयुक्तः इत्युक्ते वायुः तर्हि स्वसमवायिसंयुक्तः वायुः इति भवति अतः स्वसमवायिसंयुक्तत्वसम्बन्धेन वायौ शब्दः अस्ति तर्हि पुनः एकवारं वदतु महोदय स्वम् इत्युक्ते शब्दः
स्वम् इत्युक्ते शब्दः समवायि इत्युक्ते आकाशः
स्वसमवायि
अतः शब्दतः आकाशं प्रति गच्छामः स्वसमवायिसम्बन्धः भवति परन्तु आकाशतः परन्तु शब्दतः वायुः गच्छति तदा संयोगसम्बन्धः स्वसमवायिसंयुक्तत्वसम्बन्धः भवति शब्दतः वायु
समीचीनं हा समीचीनं महोदय अस्तु हा धन्यवादः उत्तमम् अस्तु हा शोभा भगिनी इदानीं तत्र ज्ञानम् इति तत्र तस्य चित्रस्य वर्णनं करोतु तत्र ज्ञानं कथं शरीरे भासते
आं महोदय तत्र तर्हि इदानीं ज्ञानम् इति स्वम् इति भवति ज्ञानम् इति गुणम् आत्मा इति आश्रये भवति आत्मनि भवति समवायसम्बन्धेन भवति अपि च आत्मा संयोगसम्बन्धेन शरीरे भवति इदानीं ज्ञानम् इति स्वम् इति भवति अपि च ज्ञान आत्मनयोः समवायि स्वसमवायिसम्बन्धः
हा तत्र अस्तु तत्र एतत् कुर्मः समीचीनं भगिनि हा इदानीं तत्र एतत् कुर्मः तत्र एतद् वाक्यमस्ति खलु तत्र फुट्नोट् हा तत्र पूर्वं तत्र गन्धः अपि जलः जलम् इति आसीत् तत्र इदानीं ज्ञानम् अपि शरीरम् इति स्थापयतु
आम् इदानीं तत्र अग्रे स्वसमवायिनि अस्तु तत्र स्वम् इत्युक्ते इदानीं ज्ञानम् आत्मा इति अपि नपुंसकलिङ्गे भवति तत्र
अतः आत्मा इति नपुंसकलिङ्गे नास्ति
पुंलिङ्गे
पुल्लिङ्गे पुल्लिङ्गे आत्मा आत्मन् इति खलु हलन्तपदम् आत्मा आत्मानौ आत्मानः
समवायि इत्येव भवति तर्हि तत्र
समवायि दीर्घ
स्वसमवायि स्वसमवायि पृथिवी इति आसीत् इदानीम् आत्मा इति भवति
समीचीनं
स्वसमवायि आत्मा तत् संयुक्तं तत् तत्र तत् संयुक्तं शरीरं संयुक्तत्वं शरीरं संयुक्तत्वं शरीरे इति भवति
यतोहि संयुक्तम् अस्ति शरीरं शरीरं संयुक्तम् अस्ति चेत् संयुक्तत्वम्
अस्ति शरीरे अस्ति शरीरे भवति तर्हि अन्यत्
अनेन इति अनेन परम्परासम्बन्धेन
इति अनेन परम्परासम्बन्धेन तत्र
आत्मज्ञानं
शरीरे अस्ति इति भानं भवति भासते
इति अस्ति समीचीनं शरीरे प्राप्तं शरीरे
प्राप्तं भवति इति भासते
परम्परा शरीरे अस्ति इति
शरीरे अस्ति इति
सम्बन्धेन इत्युक्ते ज्ञानम् एतेन सम्बन्धेन परम्परासम्बन्धेन अस्ति तर्हि तत्र ज्ञानं स्वसमवायी आत्मनि अस्ति आत्मा शरीरं तयोः मध्ये संयोगसम्बन्धः अतः आत्मसंयुक्तं शरीरम् आत्मसंयुक्तं शरीरं तर्हि संयुक्तत्वं शरीरे अतः ज्ञानं स्वसमवायि संयुक्तत्वसम्बन्धेन शरीरे अस्ति प्राप्तः शरीरे प्राप्तः शरीरे तस्य अस्तित्वं वृत्तित्वं प्राप्तः अतः ज्ञानं शरीरे अस्ति इति भासते इति अस्ति अस्तु अग्रे
अत्र अनया एव रीत्या कदाचित् गुणादौ जायमानः एकं रूपम् इति गुणप्रत्ययः समर्थनीयः तत्र अनया एव यत् इदानीम् अस्माभिः दृष्टं तथा एव अनया एव रीत्या कदाचित् गुणादौ जायमानः एकं रूपं जायमानः इत्युक्ते तत्र जन्याः इति भवति खलु महोदय गुणादौ जन्याः भवन्ति जन्यन्ते एकं रूपम् इति गुणप्रत्ययः समर्थनीयः
तत्र गुणप्रत्ययः जायमानः प्रत्ययः नाम गुणस्य गुणस्य ज्ञानं जायमानः अस्ति कीदृशं ज्ञानम् एकं रूपम् इति ज्ञानं
तत्र एकं रूपम् इत्युक्ते
इति ज्ञानम् एकं रूपम् अस्ति इति यदि यत्र ज्ञानं भवति तत्रापि तत्र समर्थनीयः अस्ति नाम कथम् अस्ति इति इदानीं तत्र एषः विषयः तत्र महान् विषयः अस्ति किञ्चित् एव वदामि अग्रिमे सप्ताहे पश्यामः तत्र किं भवति इति नाम तत्र केवलं तत्र किञ्चित् वक्तव्यम् अस्ति इति कृत्वा तत्र एकं रूपं तत्र एकं पुस्तकम् इति वदामश्चेत् तत्र पुस्तके एकत्वम् अस्ति खलु तर्हि किन्तु एकत्वम् इति सङ्ख्या खलु गुणः अस्ति सङ्ख्या इति गुणः अस्ति तर्हि तत्र पुस्तके एकं पुस्तकमस्ति चेत् वयं वदामः अस्तु एकम् एकत्वम् इति सङ्ख्या पुस्तके वर्तते तर्हि तत्र एकत्वम् इति सङ्ख्यारूपगुणः सङ्ख्या नाम गुणः वयं पुस्तके अस्ति इति वदामः खलु एकत्वं पुस्तके वर्तते इदानीं तत्र नीलरूपम् अस्ति पुस्तकस्य तत्र नीलरूपम् अस्ति एकमेव रूपम् अस्ति पुस्तकस्य रूपम् एकमेव अस्ति तर्हि एकमेव रूपम् इति यदि वदामः तर्हि तत्र किं भवति तत्र पुस्तकम् एकम् इति यदि उक्तवन्तः तत्र पुस्तके एकत्वं जातं खलु इति सङ्ख्या अस्ति किन्तु एकं रूपम् इति यदि वदामः तत्र नीलरूपम् इति चिन्तयतु नीलम् एकमेव रूपम् इति यदि वदामः तर्हि एकत्वं रूपे आगच्छति खलु
अस्तु
किन्तु एकत्वम् इति सङ्ख्या अस्ति खलु सङ्ख्या अस्ति अपि सङ्ख्या इति गुणः अस्ति गुणस्य आश्रयः किं भवेत् कः भवेत्
गुणस्य आश्रयः पुस्तकमेव भवेत्
न गुणस्य नाम यद् यः कोऽपि गुणः भवति गुणस्य आश्रयः गुणः द्रव्ये एव
द्रव्ये
एव खलु तत्र वयं दृष्टवन्तः तत्र आरम्भे तत्र प्रथमे पुटे अथवा द्वितीयपुटे वयं दृष्टवन्तः खलु तत्र गुणः कुत्र वर्तते इति तत्र अष्टमे पुटे पुस्तके यदि पश्यन्ति चेत् तत्र गुणः कुत्र वर्तते इत्युक्ते केवलं द्रव्ये एव गुणः वर्तते गुणः तत्र कर्मणि न भवति सामान्ये न भवति विशेषे न भवति समवाये न भवति अभावे न भवति गुणः केवलं द्रव्ये एव भवति किन्तु यदि इदानीं वयम् उक्तवन्तः एकं रूपम् इत्युक्ते एकत्वं रूपे आगतं, तर्हि एकत्वम् इति गुणः, रूपमपि गुणः, कथं गुणः अन्यस्मिन् गुणे भवितुम् अर्हति इति इदानीं समस्या. तत्र मतद्वयमस्ति, तत्र प्राचीनानां मतमस्ति गुणः केवलं द्रव्ये एव वर्तते इति, किन्तु नवीनानां मतम् अस्ति तादृशी स्थितिः नास्ति, गुणः अन्येषु गुणेषु अपि भवितुम् अर्हति, तत्र एकत्वं रूपे भवितुम् अर्हति इति. किन्तु महान् विषयः, अस्मिन् विषये चर्चा, दीर्घा चर्चा भवति, इदानीमपि प्रचलति इति चिन्तयितुं शक्नुमः. अतः तत्र महान् विषयः अस्ति, केवलं तस्य स्पर्शः भवति पुस्तके तावदेव. अस्तु, तर्हि तत्र समयोपि जातः. इदानीं प्रश्नः, तत्र अग्रिमे सप्ताहे वर्गः भवेत् अथवा न भवेत्?
न भवेत् महोदय, कृपया. पार्टि टैम्.
अस्तु भगिनि, अस्तु, तर्हि तद् तदेव भवतु. तर्हि तत् अस्मि अग्रिमसप्ताहे वर्गः नास्ति. अस्तु, तदनन्तरं मिलामः. अस्तु, तर्हि धन्यवादः, नमस्कारः.
धन्यवादः महोदय.
धन्यवादः महोदय. नमस्कारः.
धन्यवादः.